इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। मंगोलिया देशस्य राष्ट्रपतिः खुरेलसुख उखनावर्यः अद्य प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना सह वार्तां करिष्यति। उभयपक्षौ द्विपक्षीय सम्बन्धानां समीक्षाञ्च करिष्यतः। वार्तायाः अनन्तरं अनेकेषु ज्ञापनपत्रेषु हस्ताक्षरं भविष्यति इति अपेक्षा वर्तते। अद्य सायंकाले राष्ट्रपतिभवने मंगोलिया देशस्य राष्ट्रपतिः राष्ट्रपतिपदासीनया द्रौपदी मुर्मूवर्यया सह मेलिष्यति। राष्ट्रपति मुर्मू आगन्तुकस्य गणमान्यस्य सम्मानार्थं भोजस्य आयोजनं करिष्यति। इयं राष्ट्रपतिरूपेण खुरेलसुखस्य भारतस्य प्रथमा यात्रा वर्तते। मेडगास्करस्य राष्ट्रपतिः एंड्री राजोएलिना देशे वर्धमान अशान्तेः सैन्यपलायनस्य च मध्ये देशात् पलायितः अस्ति। अनेन वैश्विक जेन जेड वंशश्रेणिकाशान्तेः तरंगस्य मध्यं युवानां नेतृत्वे विरोध आन्दोलनेन पतितः एषः द्वितीयः सर्वकारः भवति। विपक्षनेता सिटेनी रैंड्रियाना सोलोनियैको इत्यनेन उक्तं यत् राष्ट्रपतिः राजोएलिना रविवासरे तदा प्रस्थितः यदा परिवर्तनस्य आग्रहं कुर्वन्तः सेना एककाः आन्दोलनकारिभिः सह सम्मिलिताः अभवन्। राष्ट्रपतेः वर्तमानस्थानम् अज्ञातम् अस्ति। राष्ट्रिय सम्बोधने राजोएलिना अवदत् यत् सः स्वजीवनस्य रक्षणार्थं सुरक्षितस्थानं गतः परन्तु स्वस्य स्थलं न प्रकाशितवान्। फ्रांस देशस्य राष्ट्रपतिः इमानुएल मैक्रोन मेडगास्कर देशे संविधानिक व्यवस्थायाः संरक्षणस्य आह्वानं कृतवान्। यतः राजोएलिना फ्रांस देशस्य सैन्यविमानेन गतः स्यात् इति समाचाराः प्राप्ताः। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः तस्य मिस्र देशस्य तुर्की देशस्य च समकक्षौ अथ कतार देशस्य अमीर शेखस्य च विंशति क्षेत्रीय वैश्विक नेतृणाम् उपस्थितौ मिस्रदेशस्य शर्मेल शेख नगरे गाजा मध्ये वर्षद्वयस्य युद्धस्य समाप्तिम् उद्दिश्य ऐतिहासिक घोषणायां हस्ताक्षरं कृतवन्तः। गतरात्रौ शर्मेल शेख शान्तिशिखर सम्मेलने एतत् हस्ताक्षरं जातम्। शिखरसम्मेलने वदन् राष्ट्रपतिः ट्रम्पः अवदत् यत् एषः विश्वस्य कृते मध्यपूर्वस्य च कृते अत्युत्तमः स्मरणीयः दिवसः वर्तते। सः प्रादेशिकनेतृभ्यः तेषां सम्मानार्थं धन्यवादं दत्तवान्। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः इजिप्ट देशे शर्मेल शेख शिखरसम्मेलने स्वस्य भाषणस्य समये भारतस्य प्रशंसाम् अकरोत् अथ प्रधानमन्त्रिणं श्रीनरेन्द्रमोदिनम् अत्युत्तमसुहृत् इत्यपि उक्तवान्। डोनाल्ड ट्रम्पः उक्तवान् यत् भारतम् एकः महान् देशः यस्य एकः अतीव उत्तमः सुहृत् प्रधानमन्त्री श्रीनरेन्द्रमोदी शीर्षस्थाने कार्यं कुर्वन् अस्ति। राष्ट्रपतिः ट्रम्पः पाकिस्तान भारतयोः सम्बन्धेषु आशावादं प्रकटितवान्। दिल्ली सर्वकारेण दक्षिण रिज क्षेत्रस्य प्रायः एकचत्वारिंशत् वर्ग किलोमीटर मितः प्रदेशः आरक्षितं वनम् इति घोषितः। दिल्ली मुख्यमन्त्री रेखा गुप्ता उक्तवती यत् राष्ट्रराजधान्याः प्रदूषणात् रक्षणाय स्थायीरूपेण पर्यावरणस्य सुदृढीकरणाय च एषः निर्णयः कृतः। सा अवदत् एतादृशेषु वनक्षेत्रेषु मुक्तभूमौ सर्वकारः देशीयवृक्षान् रोपयिष्यति येन मृत्तिकायाः उर्वरता वर्धते पर्यावरणञ्च अधिकं सुदृढं भविष्यति। मुख्यमन्त्री अवदत् दिल्लीं प्रदूषणमुक्तं हरितं पर्यावरणसन्तुलितं आधुनिकराजधानीं च कर्तुं सर्वकारस्य प्राथमिकता वर्तते। अन्ताराष्ट्रिय महिला एकदिवसीय क्रिकेट विश्व चषक स्पर्धायां दक्षिण आफ्रिका देशः गतरात्रौ विशाखापत्तनम नगरे बांग्लादेशस्य विरुद्धं रोमाञ्चकारी स्तोभकत्रय विजयं प्राप्तवान्। प्रथमं तावत् बांग्लादेशः स्वस्य 50 क्षेपचक्रेषु षट् स्तोभकहानौ 32-200 धावनांकान् समार्जयत्। तस्य उत्तरे दक्षिण आफ्रिका देशः केवलं त्रिषु कन्दुकेषु अवशिष्टेषु 7 लक्ष्यप्राप्तिम् अकरोत्। अनेन दक्षिणाफ्रिका दलं तृतीयस्थानं प्राप्नोति, बांग्लादेशः च षष्ठस्थाने वर्तते इति वार्ताः।